इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। अद्य प्रातः राष्ट्रपतेः द्रौपदी मुर्मू इत्येतस्याः संसदः उभयोः सदनयोः सम्बोधनेन साकं संसदः अर्थसंकल्पना सत्रं समारप्स्यते। राष्ट्रपतेः अभिभाषणानन्तरं केन्द्रीय वित्तमन्त्री निर्मला सीतारामन् इत्येषा लोकसभा राज्यसभयोः संक्षिप्ते सत्रे आर्थिक सर्वेक्षणं प्रस्तोष्यति। अस्माकं वार्ताहरः सूचितवान् यत् आर्थिक सर्वेक्षणस्य प्रस्तुतीकरणं संसदि अर्थसंकल्पना सत्रस्य आधिकारिकारम्भं द्योतयति इति। अद्यारभ्य समारप्स्यमानस्य अर्थसंकल्पना सत्रस्य प्रथमो भागः फरवरी मासस्य त्रयोदश दिनांकं यावत् प्रचलिष्यति, अपि च द्वितीयः भागः मार्च मासस्य दश दिनांकतः अप्रैल मासस्य चतुर्थ दिनांक पर्यन्तं प्रचलिष्यति। महाकुम्भ सम्बद्धाः घटनाः अन्वीक्ष्य उत्तरप्रदेश प्रशासनद्वारा निर्मितः न्यायिकायोगः अद्य प्रयागराजनगरस्य संगमघट्टस्य अवलोकनं करिष्यति। अयम् आयोगः घटनायाः कारणानि अन्वेषयिष्यति, परिस्थितीनाञ्च निरीक्षणं कृत्वा एकमासाभ्यन्तरे एव प्राप्तप्रतिवेदनानि समर्पयिष्यति। त्रिसदस्यात्मकस्य अस्य निर्मितायोगस्य नेतृत्वं इलाहाबाद उच्चन्यायालयस्य सेवानिवृत्तः न्यायाधीशः हर्षकुमारः करोति। ह्यः उत्तरप्रदेशस्य मुख्यसचिवः मनोजकुमारसिंहः, आरक्षिमहानिदेशकः प्रशान्तकुमारश्च महाकुम्भक्षेत्रे संगमघट्टस्य भ्रमणं कृत्वा घटनास्थलस्य निरीक्षणं कृतवन्तौ। प्रयागराजनगरस्य जनपदाधिकारी रवीन्द्रकुमारमन्दारः मार्गपरिवर्तनस्य कारणात् वाहनप्रवेशस्य प्रतिबन्धस्य विषये सञ्चारमाध्यमानां वार्ताः निराकृतवान्। ध्यातव्यमस्ति यत् फेब्रवरी मासस्य चतुर्थदिनांकपर्यन्तं प्रयागराजनगरे वाहनानां प्रवेशः प्रतिबन्धितो भविष्यति इति सामाजिकसञ्चारमाध्यमेषु तीव्रगत्या एकः सन्देशः प्रसृतः। एकस्मिन् दृश्याङ्कन सन्देशे श्रीमन्दारः स्पष्टीकृतवान् यत् वसन्तपञ्चम्याः शुभावसरे अमृतस्नानस्य कारणेन केवलं फेब्रवरी मासस्य द्वितीये दिनांके, फेब्रवरी मासस्य तृतीये दिनांके च प्रयागराजनगरे वाहनप्रवेशः प्रतिबन्धितो भविष्यतीति। नवदिल्ल्याः भारत मण्डपे श्वः आरभ्य नवदिल्ली विश्व पुस्तक मेलकं समारप्स्यते। अस्मिन् वर्षे मेलकस्य शीर्षको विद्यते वयं भारतस्य जनाः इति। नवदिवसात्मकस्य अस्य मेलकस्य उद्घाटनं राष्ट्रपतिना द्रौपदी मुर्मू इत्यनया विधास्यते। आकाशवाण्या सह वार्तालापं कुर्वन् राष्ट्रिय पुस्तक न्यासस्य निदेशकः युवराज मलिकः सूचितवान् यत् अस्मिन् वर्षे मेलकस्यास्य प्रमुखः रूसदेशो विद्यते, तथा च पञ्चाशदधिक देशाः भागं भजिष्यन्ति। एतस्मिन् मेलके भूयोऽपि 2000 यावत् प्रकाशकाः, 1000 यावच्च वक्तारः सम्मिलिताः भविष्यन्ति। बैडमिंटन प्रतिस्पर्धायां किदाम्बी श्रीकान्तः, शंकर सुब्रह्मण्यम इत्येषः च बैंकॉक नगरे थाईलैंड मास्टर्स टूर्नामेंट इत्येतस्याः प्रतियोगितायाः पुरुषैकल स्पर्धायाः प्रागुपान्त्यचक्रे प्रविष्टवन्तौ। अपि च क्रिकेट वार्तायां, आईसीसी अंडर 19 इत्येतस्यां महिलानां 20-20 विश्व चषक प्रतिस्पर्धायां अद्य मलेशियायाः कुआलालम्पुरे उपनिर्णायक चक्रे भारतम् इंग्लैंड दलं सम्मुखीकरिष्यति। भारतीय समयानुसारी क्रीडायाः अस्याः प्रसारणं मध्याह्ने 12 भविष्यति। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् आगामीषु मासेषु भारतम् एआई इत्येतस्य स्वकीयं मूलभूत प्रतिरूपं निर्मास्यति। ह्यः नवदिल्ल्यां प्रसारमाध्यमैः सह संलापयन् श्री वैष्णवः अवदत् यत् भारतस्य मूलभूत प्रतिरूपं सर्वोत्तम प्रतिमानैः सह स्पर्धां कर्तुं शक्नुवन्ति इति। वार्ताः।